इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य प्रातः 11 वादने आकाशवाणीतः मन की बात इति कार्यक्रमे स्वीयं मनोगतं प्रकटयिष्यति। मासिकस्य आकाशवाणी कार्यक्रमस्य एतत् 29th संस्करणं भविष्यति। आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनीभिः अस्य कार्यक्रमस्य प्रसारणं भविष्यति। अयं हि कार्यक्रमः आकाशवाणी वार्ता विभागस्य अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अपि च न्यूज ऑन एआईआर इति चलदूरभाषीये तन्त्रांशे अपि उपलब्धो भविष्यति। आकाशवाणी दूरदर्शन वार्ता प्रधानमन्त्री कार्यालय सूचना प्रसारण कार्यालयानां यूट्यूब वाहिनीभिः अपि अस्य कार्यक्रमस्य साक्षात् प्रसारणं भविष्यति। हिंदी भाषायाः प्रसारणस्य पश्चात् अस्य प्रसारणम् आकाशवाण्याः क्षेत्रीय भाषासु अपि भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी अद्य नवदिल्ल्यां मुख्य सचिवानां पञ्चमस्य राष्ट्रिय सम्मेलनस्य अध्यक्षतां करिष्यति। सः ह्यः अपि सभायाः अध्यक्षः आसीत्। एकस्मिन् सामाजिकान्तर्जालीये सन्देशे श्रीमोदी अवदत् यत् सम्मेलनावधौ सः शासनेन परिष्कारेण च सम्बद्धानां विविधविषयेषु चर्चितवान्। शुक्रवासरे समारब्धस्य त्रिदिवसीय सम्मेलनस्य उद्देश्यं राष्ट्रिय विकास प्राथमिकतासु संरचितेन सुस्थिरेण च संवादेन केन्द्रराज्ययोः सहभागित्वं सुदृढं करणीयमस्ति। प्रधानमन्त्रिणः सहकारी संघवादस्य दृष्ट्या स्थापितम् अयं सम्मेलनं केन्द्रराज्ययोः सहयोगस्य मञ्चरूपेण कार्यं करोति। सम्मेलनेऽस्मिन् विकसित भारताय मानव सम्पत्ति इत्यस्मिन् विषये ध्यानम् अवदास्यति। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य उत्तरकर्णाटकस्य कारवारनगरे INS कदम्ब नौसेनास्थात्रस्य भ्रमणं करिष्यति। स्थात्रस्य भ्रमणानन्तरं राष्ट्रपतिः कारवार नौकाश्रयात् सबमरीन नौकायाम् आरोहणं कृत्वा यात्रां करिष्यति। इतः पूर्वं राष्ट्रपतिः APJ अब्दुल कलामवर्यः 60th-2000 वर्षे विशाखापत्तनम् नगरे नौसेनायाः सबमरीन नौकायाम् आरोहणं कृतवान् आसीत्। अधुना श्रीमती मुर्मुः द्वितीया राष्ट्रपतिः भविष्यति। केन्द्रीय ग्राम विकास मन्त्रिणा शिवराज सिंह चौहानेन कांग्रेस दलस्योपरि आरोपितं यत् दलेन केवलं निर्वाचने लाभाय एव राष्ट्रिय ग्रामीण रोजगार प्रत्याभूति अधिनियमे 75th इत्यस्मिन् महात्मा गांधीवर्यस्य नाम समावेशितम्। भोपालनगरे वार्ताहरैः सह वार्तालापं कुर्वन् श्रीचौहानः अवदत् यत् कांग्रेसदलेन स्वप्रशासनावधौ वारं वारं मनरेगा इत्यस्य आयव्ययं न्यूनीकृतम्। मन्त्री अवदत् यत् विकसित भारत जीरामजी योजनायाः अन्तर्गतं निर्णयः दिल्लीनगरे नैव अपितु ग्रामीणस्तरे भविष्यति इति निर्णयः कृतः अस्ति।
विकसित भारत के लिए विकसित गांव, जिसमें विकास के सारे काम ग्राम पंचायत तय करेगी, ऊपर से नहीं। पहले तो ऊपर से थोप दिए जाते थे काम, अब ग्राम पंचायत तय करेगी ग्राम। और इसके लिए जो प्रस्तावित बजट है वो 1,51,282 करोड़ पहले साल ली, ताकि मजदूर को काम भी भरपूर मिले और गांव का विकास भी ऐसा हो कि गरीबी मुक्त गांव, रोजगार युक्त गांव, विकसित गांव बन जाए। और मजदूरी ना मिले तो बेरोजगारी भत्ता का पुख्ता प्रावधान, उसको और बेहतर बनाने का काम किया गया है।
भारत ऋतु विभागेन अस्मिन् मासे 30th दिनांकपर्यन्तं पंजाबे हरियाणायां चण्डीगढे च अति सघन निहाराच्छादनस्य पूर्वानुमानं प्रकटितम्। उत्तरप्रदेशेऽपि एतादृशी स्थितिः भविष्यति। मंगलवासरपर्यन्तं पंजाब हरियाणा चण्डीगढ दिल्ली उत्तर राजस्थान मध्यप्रदेश चण्डीगढ इत्येतेषु प्रदेशेषु अपि शीतलहर्याः स्थितिः भवितुमर्हति इति विभागेन सूचितम्। महिला क्रिकेट क्रीडायाम् अद्य तिरुवनन्तपुरम नगरे 25-25 अन्ताराष्ट्रिय क्रीडा श्रृंखलायाः चतुर्थ्यां स्पर्धायां भारतीयदलं श्रीलंकादलं सम्मुखीकरिष्यति। इति वार्ताः।